राम गीता जी का पाठ पहला अध्याय श्लोक 28 से 37 तक। राम
वसुदेव सुतं देवकी देवकी परमानंदं कृष्णं वंदे जगद्गुरु कृपया परयाविष्टो पिशीदन्निदमब्रवीत् अभवत् श्रेष्ठेमं स्वजनं कृष्ण युयोक्षं समुपस्थितम् सीदन्ति मम गाशाणि मुखं च परिशोष्यति वेपथोश्च शरीरे मे रोमहर्षस्तजायते गाण्डीवं संसते हस्तात् स्वस्यैव परिदह्यते न च शक्नोम्यवस्थातुम् समतीव च मे मन निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयो नु पश्यामि हत्वा स्वजनमहवि न काङ्क्षे विजयं कृष्ण न सुराज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगै जीवितेन वा येषामार्थे काङ्क्षितं नो राज्यं भोगा सुखानि च तैमेव स्थिता युद्धे प्राणाश्च पाधनानि च आचार्या पितरः पुत्रा तथैव च पितामहः मातुलः श्वशुरः पौत्रा श्यालः सम्बन्धिनस्तथा एतान्नहन्तुमेच्छामि नतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतुः किन्नु महीकृते निहत्य धर्तराष्ट्रान्न कापि स्याज्जनार्दन पापमेवाश्रदेवस्मान् धत्रैकानाथतरिन तस्मान्नारावयं हन्तुं धातराष्ट्रान् स्वबान्धवान् स्वजनां हि कथं हत्वा सुखिनस्याम माधव तस्मान्नारावयं हन्तुं धातराष्ट्रान् स्वबान्धवान् स्वजनां हि कथं हत्वा सुखिनस्याम माधव
वसुदेव सुतं देवं पंशजानुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरि शरणं हरे शरणं हरे शरणं हरे शरणं हरि शरणं हरि शरणं हरि शरणं हरे शरणं हरि शरणं हरि शरणं हरे शरणम 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 हरे शरणम।